यच्छामनभन्या अन्यथा वेरुक्ता पदद्वा प्रधानम् सर्वत् भावो धेनवो बर्हिष्यतब्धा यत्सद्मानम् दिव्यम् विवासान् अत्यदृढा मृढभिस्वेदो हव्येर्मृगोराश्रो अधियज्जो कुर्यात् ङ्गोत्तहोता भरदेवर्यो विशुदाय जत्रः नक्षद्धोता परिषद्मभिगायन् भरद्गर्भवा सरदः पृथिव्याः रन्दस्वो नजमानोरुमद्गौरन्तर्धूतो न रोदसीतरद्वाक् कर्माषदरास्मै प्रचौत्राणि देवयन्तो भरन्ते ोषदिन्द्रो दस्मवर्चारा सत्ये वसुज्ञो रथेष्टाः समुष्टिहीन्द्रम् यो हसद्वायः सूरो मघवायो रथेष्टाः प्रतीतश्चिज्योदीयान्मृषन् वाङ्मृतश्चित्रम सोमिहन्ता प्रयदिच्छामहिलान्द्रभ्यो अश्चरम् रोदसी कक्षे एरास्मै संविव्ययिन्द्रो विजनन्न भूमा भक्तिश्रधावानोपसमीपद्याम् समत्सुत्वा सूरसदामूराणम् प्रभचिन्द्रमम् परितम् सयध्यै सजोडसयिन्द्रम् मदे क्षोणे सूरिञ्चिद्य अनुमदम् दिवाजैः ये पाहि ते संसमनासमुद्रा भोजत्त आसुमदम् दिदेवीः विश्वा ते अनुजोषा भोजौ सूरिञ्चिद्यतिधिषवेषिजनान् असा भयथा सुषकाय जेन स्वभिष्टयो नरान्न संसैः असद्यथा न इन्द्रो वन्दनेष्ठा सुरोरकर्म न यमानभुक्था निष्पर्धतो नरान्न संशैरस्माका सदिन्द्रो वज्रहस्तः मित्रायुभो न पूर्वजिम् सुदृष्टौ मध्यायुभोपशिक्षन्तु यज्ञैः यज्ञो हिष्मेन्द्रम् कश्चिद्ग्रन्थम् जुहुराणश्चिन्मनसा परियन् दीर्थेनाच्छादादृढानमोको दीर्घो न सिद्धमागृणोत्यध्वा मोषो न इन्द्रात्र मृत्सुदेवैरस्ति ह्युष्मादयसुष्मिन्न भयाः महस्त्यज्ञस्य भीरुणो यव्या हविष्मतो मरुतो मन्ददेवीः एषस्तोम इन्द्रतुभ्यमस्मे चेतेन गातुम् हरिवो विदो नः आनोवृत्यास्तु पिता च देव विद्यामेषम् विदनम् जीवदानम्